गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन् नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीनामवित्र्यवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातरिषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्याय तवतया नो रुद्रमृळया
याते
रुद्र शिवा तनूरघोरा पापकाशिनी तया नस्तनु वाशन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहीगुश्च सर्वान् जम्भयन् सर्वाश्च यातु धान्यः
असंयताम्रो
अरुण उत बभ्रोत्सु मङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रुता सहस्रशो वैशागुम् हेड ईमहे असव्यो वसत्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वादोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्त्रियोर्ज्याम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु धे निषेज शल्यानाम् मुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नातताय दृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो नेतिरस्मान् वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नभो हिरण्यबाहवे सेनान्ये दिशां च पतये नभो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्मिञ्जराय त्रिशीमते पथीनां पतये नमो नमो बभ्लुषाय विव्याधिलेनानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथाविने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृत औषधीनाम् पतये नमो नम उच्चैर्दोषाय क्रन्दयते पत्तीनाम् पतये नमो नम कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमत्सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमस्त्रिकाविभ्यो जिघागुं सद्भ्यो मुष्टताम् पतये नमो नमो सिमद्भ्यो नक्तञ्चरभ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नमः आव्याधिनीयेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाव्यत्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नम सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः दक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मादेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नम स्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कवर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शेभ्याय च नमः पूर्म्याय च वत्सन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जगन्याय च बुद्धेयाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्रोत्याय च वसाद्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिरते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च हृतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो वृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः कात्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नात्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्त्याय च कोल्याय च नमः पार्याय च वात्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः शष्प्याय च पेन्याय च नमः सिकत्याय च प्रवाह्याय च नमः इरिण्याय च प्रपत्याय च नमः केगुं शिलाय च क्षयणाय च नमः कवर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेयाय च नमः कात्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोल्लप्याय च नमः ओर्ध्याय च चोर्ध्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमानाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीरकेभ्यो नमो विचिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आमीवक्केभ्यः द्रावे अन्धसत्पते दरिद्रन् नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्च नाममत् याते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तयानो मृणजीवसे इमागुम् रुद्राय तवसे कवर्दिने क्षयद्वीराय प्रवरामहे मतिम् यथा नश्यमस द्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो वयस्कृति क्षयद्वीराय नमसा विधेमते यच्छन्तयोश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रवामितो वधिर्हविष्मन्तो नमसा विधेमते आराते गोग्र उत पोरुषग्ने क्षयद्वीराय त्वम् नमस्मेते अस्तु रक्षा च नो अधि च देव रौह्यथा च नः शर्म यच्छत्विपर्हाः स्तुभि श्रुतम् गर्त सरङ्गिवानम् मृगन्न भीममुपहत्वमुग्रम् मृणाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेते विरक्तो परित्वेषस्य दुर्मतिरगायोः अवस्थिरा मघवद्भ्यस्तनुष्वमीढुस्तोकायतनयाय मृडया मीढुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधन्निधाय कृत्तिम् वता न आचर पिनाकम् बिभ्ररागहि विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोत्सव हेतयः तासामीशानो भगवः पराचीरामुखाकृति सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् तेषागुम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन्महत्यन्नवेन्तरिक्षे भवासि नीलग्रीवा श्रुतिकण्ठा शर्वा अधः क्षवाचराः नीलग्रीवा श्रुतिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्मिन् जरा नीलग्रीवा विलोहिता ये भूतानामधिपतयो विशिखासक्कवर्दिनः ये अन्येषु विवत्यन्ति मात्रेषु पिबतो जनान् ये पताम् पतिरक्षय ऐलव्रदायव्युधः ये तीर्थानि प्रचलन्ति सृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयो जने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् ये एन्दरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोदिचेर्दशोद्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् द्विष्मो यश्च नो वेष्टितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनाभिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो भाविशान्तकः तेनानेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषुधन्वायो विश्वस्य क्षयति भेषजस्य यस्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरम् दुमस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे तदो यगु शिवाभिमर्शनः ॐ शान्ति 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 ॐ अग्नाविष्टो सजोषसेवावर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे भीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च मायुश्च मे नरा च मात्मा च मे तनुश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परोगुंश्य च मे शरीराणि च मे ज्येष्ठम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मे मश्च मे नेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे भस्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषश्च मे क्रीडा च मे मोदश्च मे ज्ञातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुमतम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे ಸಂಚ ಮೇ ಮಯಸ್ಯ ಮೇ ಪ್ರಿಯಂಚ ಮೇನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಮಗಶ್ಚ ಮೇ ದ್ರವಿಣಂಚ ಮೇ ಯಂತಾಚ ಮೇ ದತ್ತಾಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಶ್ಚ ಮೇ ಜ್ಞಾತ್ರಂಚ ಮೇ ಸೋಶ್ಚ ಮೇ ಪ್ರಶೋಶ್ಚ ಮೇ ಶೀರಂಚ ಮೇ ಲಯಶ್ಚ ಮೃತಂಚ ಮೇ ಮೃತಂಚ ಮೇ ಯಕ್ಷ್ಮಂಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೈವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂಚ ಮೇ ನ ಮಿತ್ರಂಚ ಮೇ ಭಯಂಚ ಮೇ ಸುಗಂಚ ಮೇ ಶಯನಂಚ ಮೇ ಸೋಷಾಚ ಮೇ ಸುದಿನಂಚ ಮೇ ಊರ್ಕ್ಚ ಮೇ ಸೋನೃತಾಚ ಮೇ ಪಯಶ್ಚ ಮೇ ರಸಶ್ಚ ಮೇ ಘೃತಂಚ ಮೇ ಮಧುಚ ಮೇ ಸದ್ಯಶ್ಚ ಮೇ ಸಮೇತಿಶ್ಚ ಮೇ ಕೃಷಿಶ್ಚ ಮೇ ವೃಷ್ಟಿಶ್ಚ ಮೇ ಜೈತ್ರಂಚ ಔದ್ಧಿದ್ಯಂಚ ಮೇ ರಯಶ್ಚ ಮೇ ರಾಯಶ್ಚ ಮೇ ಪುಷ್ಟಂಚ ಮೇ ಪುಷ್ಟಿಶ್ಚ ಮೇ ವಿಭುಚ ಮೇ ಪ್ರಭುಚ ಮೇ ಬಹುಚ ಮೇ ಭೂಯಶ್ಚ ಮೇ ಪೂರ್ಣಂಚ ಮೇ ಪೂರ್ಣತರಂಚ ಮೇ ಕ್ಷಿತಿಶ್ಚ ಮೇ ಕೋಯವಾಶ್ಚ ಮೇ ನಂಚ ಮೇ ಕ್ಷುಚ್ಚ ಮೇ ನೇಹಯಶ್ಚ ಮೇ ಯವಾಶ್ಚ ಮೇ ಮಾಶಾಶ್ಚ ಮೇ ತಿರಾಶ್ಚ ಮೇ ಮಗ್ಗಾಶ್ಚ ಮೇ ಖಲ್ವಾಶ್ಚ ಮೇ ಗೋಧೂಮಾಶ್ಚ ಮೇ ಮಸುರಾಶ್ಚ ಮೇ ಪ್ರಿಯಂಗವಶ್ಚ ಮೇ ನವಶ್ಚ ಮೇ ಶ್ಯಾಮಕಾಶ್ಚ ಮೇ ನೈವಾರಾಶ್ಚ ಮೇ ಅಶ್ಮಾಚ ಮೇ ಮೃತ್ತಿಕಾಚ ಮೇ ಹಿರಯಶ್ಚ ಮೇ ಪರ್ವತಾಶ್ಚ ಮೇ ಶಿಖರಾಶ್ಚ ಮೇ ವನಸ್ಪತಯಶ್ಚ ಮೇ ಹಿರಣ್ಯಂ ಚ ಮೇ ಯಶ್ಚ ಮೇ ಶೇಷಂಚ ಮೇ ತ್ರಭುಶ್ಚ ಮೇ ಶ್ಯಾಮಂಚ ಮೇ ಲೋಹಂಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮಾಮಶ್ಚ ಮೇ ನಿರುಧಶ್ಚ ಮಾಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಣಮಚ್ಯಂಚ ಮೇ ಕೃಷ್ಣಮಚ್ಯಂಚ ಮೇ ಗ್ರಾಮ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಅರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಂ ವಿತ್ತಂಚ ಮೇ ವಿತ್ತಿಶ್ಚ ಮೇ ಭೂತಂಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸುಚ ಮೇ ವಸತಿಶ್ಚ ಮೇ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮೇ ಅರ್ಥಶ್ಚ ಮಹೇಮಶ್ಚ ಮಹಿತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತಿ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಪೂಷಾ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ವಿಷ್ಣುಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಶ್ವಿನೌ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಮರುತಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ವಿಶ್ವೇ ಚ ಮೇ ದೇವಾಂದ್ರಶ್ಚ ಮೇ ಪೃಥಿವೇ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಅಂತರಿಕ್ಷಂಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ದಿಶಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಮೂರ್ಧಾ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಪ್ರಜಾಪತಿಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಅಗುಂಸುಶ್ಚ ಮೇ ರಶ್ಮಿಶ್ಚ ಮೇ ದಾಭ್ಯಶ್ಚ ಮೇ ಧೀಮತಿಶ್ಚ ಮ ಉಪಾಗುಂಸುಶ್ಚ ಮೇ ಅಂತರ್ಯಾಮಶ್ಚ ಮೈಂದ್ರವಾಯವಶ್ಚ ಮೇ ಮೈತ್ರ ವರುಣಶ್ಚ ಮಹಾಶ್ವಿನಶ್ಚ ಮೇ ಪ್ರತಿ ಪ್ರಸ್ಥಾನಶ್ಚ ಮೇ ಶುಕ್ರಶ್ಚ ಮೇ ಮಂತ್ರೇ ಚ ಮಹಾಗ್ರಯಣಶ್ಚ ಮೇ ವೈಶ್ವದೇವಶ್ಚ ಮೇ ಧ್ರುವಶ್ಚ ಮೇ ವೈಶ್ವ ನರಶ್ಚ ಮರುತ ಗ್ರಹಾಶ್ಚ ಮೇತಿ ಗ್ರಾಹ್ಯಾಶ್ಚ ಮ ಐಂದ್ರಾಗ್ನಶ್ಚ ಮೇ ವೈಶ್ವದೇವಶ್ಚ ಮೇ ಮರುತ್ವತೇಯಾಶ್ಚ ಮೇ ಮಹೇಂದ್ರಶ್ಚ ಮಹಾದಿತ್ಯಶ್ಚ ಮೇ सामित्रस्य मे सारस्वतस्य मे पौष्णस्य मे पात्नीवतस्य मे हार्योजनस्य मे हिन्मश्च मे वर्यश्च मे वेदश्च मे धृष्णयाश्च मे शुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च मरवाश्च मे निषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतवश्च महाद्रवणीयश्च महाग्रेये ग्रञ्च मे हविर्नानं च मे ग्रवाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे अमृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे चौर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मे धृतिश्च मे धृतिश्च मे द्यौश्च मे शक्वरेण कलयो दिशश्च मे यज्ञेन कल्पन्ताम्रच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वर्षाश्च मे त्रयभिश्च मे त्रयवे च मे दित्यवाक्च मे दित्यौहि च मे पञ्चभिश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाक्च मे तुर्यौहि च मे पष्ठवाक्च मे पष्ठ्यौहि च मुख्या च मे वशा च मरुषभश्च मे मेहं च मे हण्वाञ्च मे धेनुश्च आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताम् गुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाक्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च मे एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च मे एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च मे एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टा चत्वारिगुंशच्च मे वाजश्च प्रसवश्च विजश्च क्रतुश्च शुवश्च बोधा च व्यस्नेयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्च निपतिश्च या देवहुर्मनुर्यज्ञनिर्बृहस्पतिरुक्थ मदानि शगुं सत्विश्वे देवासोक्तवाच पृथिवीमात मामाहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवनिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्याम् मनुष्ये व्यस्तम् वा देवा अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति 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 ॐ
अत्रिना त्वा कृमे हन्मे कन्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमेनागुं राजा अप्येषागस्तमतिर्हतः अतो माता तो पिता अतो स्थूला अतो क्षुद्रा अतो कृष्णा अतो श्वेता अतो आशातिका हता श्वेताभिः सह सर्वे हता आहरा वन्द्या श्रुतस्या विशो यता तत्सत्यम् यदमह्यमस्य जम्भयो आदधामि तथा हि तत् कन्प्रन्वसे शान्ति 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 ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः ताम् महावः जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमन्द्राम् हस्तिनान् प्रवोदिनीम् श्रियम् देवीमुवक्वये श्रीमा देवी जुषताम् काम् सोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपक्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्ति श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रवन्दे अलक्ष्मीर्मे नश्यताम् त्वावृणे आदित्यवर्णे तपसोदिजातो वनस्पतिस्तव वृक्षोत विल्वः तस्य बलानि तपसा नुदन्तु मायान्तराया च भाग्या लक्ष्मीः उपैतु माम् देवसकः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राश्रेऽस्मि कीर्तिवृन्दम् ददातु मे ह्युत्पिपासामलाम् ज्येष्ठामलक्ष्मी नाशयाम्यहम् अवोतिमसमृद्धिम् च सर्वानिन्नदमे गृहात् गन्धद्वारा द्वारा दर्श नित्यपुष्टा करीषिणी ईश्वरीगुम् सर्वभूताना तामिवोपक्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमशीमहि पशूनाम् रूपमन्नस्य महिश्रेयश्रयताम् यशः कर्दमेन प्रजाभूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनी आमसृजन्तु सिग्नानि चिक्लेतव समे गृहे निच देवीम् मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः आर्द्राम् यःकरिणीम् यष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः मावह जातवेदो लक्ष्मीमनवगामिनी यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान् विन्देयम् पुरुषानहम् यः शुचिः प्रयतो भूत्वा यूयादान्यमन्वहम्
श्रियम्
पञ्चदश चम् च
श्रीकामः सततम् जपेत् पद्मानने पद्मऊढो पद्माक्षे पद्मसम्भवे त्वम् वा भजस्य पद्माक्षि येन सौख्यम् लवाम्यहम् अश्वदायि गोदायि धनदायि महाधने धनम् मेजुषताम् देवि सर्वकामाश्च देहि मे पुत्रपौत्रधनम् धान्यम् अस्वस्वादिगवेरतम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसो धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैनते यसोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न च मात्सर्यम् न लोभो न शुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसोक्तम् जपेत् सदा वर्षन्तु ते विभावरि निवो अम्रस्य विद्युतः रोहन्तु सर्वबीजान्यव ब्रह्म दिशो जहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मम् मयि सन्निधस्व यासा पद्मासनस्था विमुलकडिदणि पद्ममत्रायताक्षे गम्भीरावर्तनाविस्तनवरनमिता सम्रवस्त्रोत्तरीया लक्ष्मीः दिव्यैः गजेन्द्रैः मणिगणकचितैः स्नामितायैः मकुम्भैः नित्यम् सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीम् क्षीरसमुद्रराजतनयाम् श्रीरङ्गधामेश्वरीम् नासी भूतसमस्तदेववनिताम् लोकैकदेवाम् कुराम् श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्रगन्धाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् सिद्धलक्ष्मी मोक्षलक्ष्मी जयलक्ष्मी सरस्वती श्रीलक्ष्मी वरलक्ष्मी च प्रसन्ना मम सर्वदा वराहुसोपासमवेति मुद्राम् करेवहन्ते कमलासनस्ताम् मालाकोणि प्रतिवाम् त्रिनेत्राम् भजे अम्बाम् जगदीश्वरीम् त्वाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्धसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुमत्ते च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ शान्ति 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 ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्मादिपदे ब्रह्मणोऽधिपदे ब्रह्मा शिवो मे अस्तु सदाशिवो कर्मेष्टोर्परमम् पदगम् सदा पश्यन्ति सूरयः दिवेव चक्षुरातम् तद्विप्रासो विपण्यवो जाग्रवागुम् सस्समिन्दते विष्णो यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् हंसहंसाय विद्महे परमहंसाय धीमहि तन्नोऽहंस प्रचोदयात्। स्वस्ति प्रजाम्यः परिपालयन्ताम् न्यायेन मार्गेण महिमहिषाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यम्। समस्तलोकाः सुखिनो भवन्तु, समस्तलोकाः सुखिनो भवन्तु, समस्तलोकाः सुखिनो भवन्तु। ॐ शान्ति शान्ति शान्तिः।